नमस्सर्वेभ्यः. अद्य कृदन्तवर्गे अष्टाविंशः पाठः, नवम्बर् मासस्य अष्टादशः दिनाङ्कः. अद्य वयं हलन्तधातूनां क्तप्रत्ययान्तरूपाणि जानीमः, तथैव कर्त्रर्थे क्तप्रत्ययस्य प्रयोगमपि पश्यामः. योऽन्तः प्रविश्य ममवासमिमां प्रसुप्तां सञ्जीवयत्यखिल शक्तिधरस्वधाम्ना अन्यांश्चहस्तचरणश्रवणत्वगानीन् प्राणान्नमो भगवते पुरुषाय तुभ्यं गुरुरेव दतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो. गतवर्गेषु अधीतस्य किञ्चित् पुनरावर्तनं कुर्मः. प्रत्ययं धीयानाः स्मः. सः प्रत्ययः रूपेषु त इति श्रूयते. भूतकालार्थकः कर्मार्थकः प्रत्ययः क्तप्रत्ययः. अर्थद्वयं बोधयति. एकं भूतकालः, द्वितीयं कर्म इति. सर्वेभ्यः धातुभ्यः अयं प्रत्ययः भवति. त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति. अकारान्तः पुल्लिङ्गः, आकारान्तस्त्रीलिङ्गः, एवम् अकारान्तः नपुंसकलिङ्गः. कृतः, कृता, कृतम्. पठितः, पठिता, पठितम् इत्येवम्. सर्वासु विभक्तिषु सर्वेषु च वचनेषु प्रयोगाः भवन्ति. सामान्यप्रयोगे तु प्रथमान्ततया यदा प्रयोगः क्रियते तदा क्तप्रत्ययान्तस्य प्रयोगः कर्मणि प्रयोगः भवति. क्तौ तु प्रत्ययान्ते उपयुक्ते तु कर्तरि प्रयोगः भवति. अनयोः परस्परपरिवर्तनं कथं तव तु प्रत्ययान्तस्य क्तप्रत्ययान्ततया परिवर्तनं शक्यते इति गतवर्गे दृष्टवन्तः. बहुधा अभ्यासाः अपि दृष्टाः. तथैव अजन्तधातूनां क्तप्रत्ययान्तरूपाणि अधीतानि. अद्य हलन्तधातूनां क्तप्रत्ययान्तरूपाणि पश्यामः. त इति प्रत्ययः इडागमः भवति. सेट् धातूनां, सामान्यतः सेट् धातूनां धातुः इट् प्रत्ययः इत्येवं भवति. अच् अच् इ अर्चितम्, ईक्षितम्, खादितम्, क्रीडितम्, लिखितम्, इलितं, कुपितं, रुदितम् इत्येवं रूपाणि भवन्ति. गुणः न भवति. लिख, मिल, कुप, रुद् इत्यादिषु इकारः, उकारो वा उपधायामस्ति चेत् गुणः न भवति क्तप्रत्ययस्य कित्वात्. समानः अभ्यासः. प्रयोगः परिवर्तनीयः. क्तव तु प्रत्ययान्तस्य प्रयोगः दीयते. कर्मणि प्रयोगे क्तप्रत्ययान्तम् उपयुज्य परिवर्तनं करणीयम्. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु कृपया. You have to unmute yourself.
Can you hear me?
Balaah
paatam patitavantah. Balaihi paatam patitam.
Paatha shabdah pullinge.
Balabhyam paatam patitam.
No, no. Adu karma padam. Karma palam kim?
Patitam.
Karma padam.
Paatham. Paatehi patitam.
No, no. Pullingah. Paathah. Paathah.
Paathah. Paatham. Paathah.
Kta pratyam. Paathah.
Paatham.
No, no. Patita. Paathah patitah. Paatha iti pullingah. Atah paathah patitah. Kaihi patitah.
Balah paathah patitah. Balaihi paathah patitah.
Samyak. Balaihi paathah patitah. Tatra paatham iti dvitiya vibhaktihi nam bhavati paathah patitah. Balaihi paathah patitah.
Patitah. Hanuman samudram langitavan. Hanumena samudraha langitam.
Samudraha?
Samudram.
No, no, no. Samudraha langhi. Yadi padam pullinge asti, kta pratyayantaha api pullinge eva bhavati.
Langitaha.
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 Samudraha langitaha. Hanumata akaranta shabdah. Hanumata.
Hanumata. Samudraha langitaha.
Sopekam.
Balikaha kridatavatyah. Balikaihi kriditam.
Balikabhihi kridinam.
Balikabhihi kriditam.
Kriditam. Samyak.
श्रूयते वा
श्रूयते
नमस्ते महोदय वयं रामायणं नटितवन्तः अस्माभिः रामायणं नटितम्
नटितम् रामायणं नटितम् अस्माभिः रामायणं नटितम्
सा उच्चैः हसितवती तया उच्चैहि हसितम्
हसितम् इति कर्मपदं नास्ति अतः हसितम् इत्येव तया उच्चैहि हसितम् she laughed loudly अतः तया उच्चैहि हसितम्
लवकुशौ वाल्मीकिं वन्दितवन्तौ लवकुशाभ्याम् वाल्मीकिः वन्दितः
वन्दितः वाल्मीकिः वन्दितः लवकुशाभ्याम् वाल्मीकिः वन्दितः पुनः स्मारयामि ये आरम्भिकस्तरे प्रयोगपरिवर्तनस्य अभ्यासं कुर्वन्ति यदि कर्मणि प्रयोगः कर्तव्यः आदौ कर्मपदम् कर्मपदस्य प्रथमा विभक्तिः पाठः समुद्रः रामायणं वाल्मीकिः सो द फर्स्ट थिंग यू हैव टू आइडेंटिफाई इज द कर्मपद द प्रथमा विभक्ति ऑफ द कर्मपद सो नेक्स्ट यू हैव टू जॉइन द क्त प्रत्ययांत अकॉर्डिंग टू द कर्मपद सो पाठः पठितः सो इफ इट वर कथा पठिता पुस्तकं पठितं समुद्रः लंघितः So, if it was something else, say, நகரம் லங்கிதம் நதி லங்கிதா. So based on the karma pada add the kta pratyayanta and then convert the kartrapada. So adau kartrapadasya parivartanam kriyate chet sandeha bhavati. So then you might get confused with the kta pratyayanta. So take the karma, get the kriya pada and then move to the karta. अत्र एकं सुभाषितं पश्यामः. सिद्धः श्लोकः. पीलिकार्जितं धान्यं मक्षिका सञ्चितं मधु लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति. सञ्चयः न कर्तव्यः, दानं कर्तव्यम् इति दानस्य महत्त्वं बोधयति इदं सुभाषितम्. पिपीलिकार्जितं धान्यं, पिपीलिकाभिः अर्जितं धान्यं. सो धान्यं ग्रेन्स्, अर्जितं विच इस् अर्न्ड् और् कलेक्टेड् बै द आण्ट्स् पिपीलिकाभिः. मक्षिका सञ्चितं मधु, मक्षिकाभिः सञ्चितं मधु. सो मधु नेक्टर् और् हनी विच इस् कलेक्टेड् बै द हनी बीस्. लुब्धेन सञ्चितं द्रव्यम्. So similarly a miser, so dravyam wealth which is amassed by the miser, samulam hi vinashyati is destroyed completely. Samulam is by the roots, that is completely destroyed. Evam artha. So pipilikabhihi arjitam dhanyam, makshikabhihi sanchitam madhu, lubdhena sanchitam dravyam, samulam vinashyati. अतः सञ्चयः न कर्तव्यः, दानं कर्तव्यम्. बिकास् एनिथिङ्ग् से द नेक्टर् अमास्ड् बै द हनी बीस् इस् आल्वेस् टेकन् बै अदर्स्, बै ह्यूमन्स् आर् बै अदर् एनिमल्स्. सिमिलर्ली द वाट् एवर् इस् कलेक्टेड् बै द पिपीलिका एण्ड् देर् फोर् द हियर् द उपदेश इस् फार् ह्यूमन्, सञ्चयः मास्तु इति. सो there is also another similar subhashita, similar thing in the Niti Shatakam. He says danam bhogaha nashaha tisraha gatayaha bhavanti vittasya yo na dadati na bhunkte tasya tritiya gatir bhavati. Danam bhogaha nashaha, so vitta money has only three ways to go. Danam, you either give it, bhogaha you enjoy it, or it is destroyed. Tisraha gatayaha bhavanti vittasya yo na dadati na bhunkte. So he who neither gives nor uses it for enjoyment, so then he will see only the third fate, which is destroyed. So there is nothing else you can do by sanchaya. So just keeping it or collecting it is of no use. Pipilika arjitam dhanyam makshika sanchitam madhu लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति. अग्रे पश्यामः. विजन्ताः धातवः सर्वेऽपि सेट् धातवः भवन्ति. यथा चोरयति चोरितं, क्षालयति क्षालितं, कथयति कथितं, गणयति गणितं, तोलयति तोलितम्. So, prerananich, all these five, torayati, kshalayati, kathayati, ganayati, solayati, these belong to the tenth gana, where we say swarthe nich. So, nich is compulsorily added, but it does not change the meaning. Whereas, you can also have the preranarthaka nich. Kathati, athayati, athitam. Dadati, dapayati, dapitam. Roditi, rodayati, to cry and to make somebody cry, roditam. Bhojayati, bhojitam, fed, feed, tasya, bhojitam. Gamayati, gamitam. Swarthe vabhavatu, preranayam vabhavatu, nijantaha, sarvepi, setaha. So, nijanta drupam drishtva, tasya, itam yojayitva, kapratyayam tasya, रूपं साधयितुं शक्नुमः. इदानीम् एकः अभ्यासः संस्कृतेन अनुवादः कर्तव्यः वाक्यस्य कर्तरि एवं कर्मणि अर्थात् प्रत्ययान्तम् उपयुज्य कर्तरि ततः तस्यैव कर्मणि प्रयोगः. So these are sentences are not new. So we did a similar exercise in Tavatu. So we are just repeating it so that we do sentences in both Kartari Prayoga and Karmani Prayoga. Okay.
Mahilaya.
First let's go to Kartari.
Kartari, okay. Mahila. पात्राणि नद्यां प्रक्षालितवती
विमेन
वि विमेन महिलाः नद्यां पात्राणि प्रक्षालितवत्यः.
सम्यक्. सो महिलाः नद्यां पात्राणि प्रक्षालितवत्यः.
महिलाभिः नद्यां पात्राणि क्षालितानि
प्रक्षालितानि. बोथ ऑफ देम मीन द सेम. सो महिलाभिः नद्यां पात्राणि प्रक्षालितानि. सम्यक्, धन्यवादः. हरमंदर सिंह महोदय
नमो नमः. The two thieves stole gold from the rich man's house. Churo. Churita. Swarnam. Churita vantau.
Samyak.
Swarnam from the rich man's house. Dhanikasya grahat.
सम्यक्. सो चोरौ धनिकस्य गृहात् स्वर्णं चोरितवन्तौ. स्वर्णं सुवर्णम् उभयं समानम्. सो चोरौ धनिकस्य गृहात् स्वर्णं चोरितवन्तौ. कर्मणि
प्रयोग सुवर्णः
स्वर्णं
चोरित by the thieves. So chorabhyam dhanikasya grahat. Chorabhyam dhanikasya grahat suvarnah choritah.
Suvarnam napumsakalinge.
Suvarnam choritah.
So chorabhyam dhanikasya grahat suvarnam चोरितम्. उत्तमम्. पद्मनाभन
महोदय. द टीचर टॉट द स्टूडेंट्स वेल. टॉट शिक्षितवान स्टूडेंट्स. Okay, both fun. Students, I would say, chatran, samyak, bodhitan. So, shikshakaha, chatran, samyak, bodhitan.
Bodhitavan.
Bodhitavan, yeah.
शिक्षकः अध्यापकः गुरुः एनिथिङ्ग् छात्रान् सम्यक् बोधितवान्.
अध्यापकेन च छात्राः सम्यक् बोधिताः
बोधिताः छात्राः बोधिताः अध्यापकेन छात्राः सम्यक् बोधिताः गिरिजा भगिनी
नमस्ते द बॉय मेड हिज सिस्टर क्राई बालकः भगिनी रोदितवान्
रोदितवान् सो बालः भगिनी
बालकः
रोदितवान्
बालेन अनुजा रोदिता
रोदिता अनुजा रोदिता सो बालेन अनुजा रोदिता सम्यक् रामप्रिया
I counted the stars in the sky. Aham akashe nakshatrani ganitavati.
Samyak. Aham akashe nakshatrani ganitavan athava ganitavati.
Nakshatrani ganitani. मया आकाशे नक्षत्राणि गणितानि
सम्यक् मया आकाशे नक्षत्राणि गणितानि पञ्चनगं स्वामिनाथ महोदय
यशोदा फेल्ड कृष्णा कैन यू हियर मी यशोदा कृष्णं फेड् फेड्
भोजयति
भोजिता यशोदा फेड् सो भोजितवान्
यशोदा
भोजितवती
सम्यक् यशोदा कृष्णं
कृष्णं भोजितवती यशोदया कृष्णः भोजितः
भोजितः उत्तमं यशोदया कृष्णः भोजितः
भोजितः
सम्यक् एवं निजन्तानां धातूनां रूपाणि फेट् रूपाणि एव भवन्ति इति दृष्टान्तः एकं सुभाषितं पठामः कल्पद्रुमः कल्पितमेव सूते सा कामधुःखामितमेव दोग्धे चिन्तामनिश्चिन्तितमेव दत्ते सतां तु सङ्गः सकलं प्रसूते सत्सङ्गतिः तस्याः महत्त्वं वर्णयति अयं श्लोकः कल्पद्रुमः कल्पितम् एव सूते वयं यत् कल्पयामः So what we imagine, what we ask for, tadeva sute, kalpa drumaha, the kalpa vriksha. Okay? So the tree, the wish-giving tree of the svarga, kalpitam eva sute. So if it has to give you something, it will grant you all your wishes, but first you have to imagine what you want. Sa kamadhuk kamitam eva dopti. So similarly, the kamadhuk is the kamadhenu, the cow which will again give the kama, the desires, kamitam eva dopti, it will milk, that is, I mean, you can get as the milk, what? Kamitam, yat kamayamahe, so that which we want, so that only it will give. Chintamanihi, chintitam eva datte, so chintamani is another, a jewel, which is supposed to give whatever is thought of. So, chintitam, yet chintayamaha tadeva dadati. So, what we think of. The thing is, the problem is, we might be thinking of things which are actually wrong or which are not really good for us. So, we need something which can benefit us even though we don't know what it is. Satam tu sangaha. satam, so jananam sangha sakhyam, so the association of good people, sakalam prasute, it will give everything, that is whether you have thought of it or not thought of it, so everything which is beneficial to you will be given, even which you might not have imagined or you might not have known that you have to ask for it. Ataha kalpadrumaha kalpitam eva sute sa kamadhuk kamitam eva dukthi chintamanihi chintitam eva datte satam tu sangaha sakalam prasute. So satsangatih kathaya kimna karoti pumsam. So what does satsangati not do for people? Bahavaha shlokaha santi tatra ayam ekaha kalpadrumah kalpitame vasute paka madhukka mitame madukthi chintamanish chintitame madatte satam tu sangas sakalam prasute. So kalpitam kamitam chintitam iti tapratyantana rupani. Adve gachamaha. Idani anit dhatavaha bhavanti. Anit dhatuhu. Halantaha anit dhatuhu chet. Hal sandhi bhavati. Etattu jani maha. Uhuvaram drishtam. Tumun ktva ktavatu sarvatrapi drishtam. Rishir drishtam. So shakaraha stityataha takaraha. Atra ubhayam shakaraha takaraha. Bhavati abh abdham krudh kruddham yaj yaktam bhuj bhuktam dah dabdham duh dugdham lih lidham gah gadham chid chinnam nud. So I think the meanings of these dhatus should be familiar by now. Krish, to flow or to drag. Pashyati, we all know. Labhate, to get or to gain. Krudhyati is to be angry towards. Tyajati, to give up or leave. Bhunkte, to eat. Dahati, to burn. Dobhi, to milk. Led, to lick. Gahate, it is to enter or to drown in the water, or it is also used in the sense of entering the water. Not only water, predominantly with water, but generally in the sense of entering also we can use it. So chinati is to cut, nudati to push. So atra, the most of the halsandhis are common with the other pratyayas like krashtum, drashtum, labdhum, krodhum, tyaktum, bhoktum, dagdhum, dogdhum, ledhum, gadhum. So those are all the same. But this one, wherever there is dakara, you have the nakara for the kta pratyaya. So chidutta becomes chinna, chiduna and chinna. Evam nuduna nunna. So this is special to the ktavatu and kta. So chinnavan chinnam, nunnavan nunnam ityevam bhavati. Atta vartamana kale vakyam diyate bhuta kale parivartaniyam. So both kartari and karmani. So ktavatu for kartari and kta for karmani. Yevaktumichanti Hattam Ilayantu Meenakshi.
Krishikaha Bhumim Karsati. Krishikaha Bhumim Krishtavan.
Krishtavan. So the farmer blows the field. Krishikaha Bhumim Krishtavan.
Krishakena Bhumi Krishta.
Bhumihi krishta. कृषिकेण और कृषकेण तथापि पदमस्ति कृषकः कृषिकः इति कृषिकेण भूमिः कृष्टा महादेव
अहम् काश्याम् विश्वनाथम् पश्यामि अहम् काश्याम् विश्वनाथम् दृष्टवान्
अहम् काश्याम् विश्वनाथम् दृष्टवान् दृष्टवती
मया काश्याम् विश्वनाथः दृष्टः
विश्वनाथः दृष्टः मया काश्याम् विश्वनाथः दृष्टः मैथिली भगिनी
नमस्ते ते प्रभूतं धनं लभन्ते
लभन्ते एक्चुअली लभन्ते
ते प्रभूतं धनं
लब्धवन्तः ते प्रभूतं धनं लब्धवन्तः
तैः धनं लब्धं तैः प्रभूतं धनं लब्धं
सम्यक् तैः प्रभूतं धनं लब्धम् उत्तमम् सो एनीबडि एल्स् हु हस् नाट् tried so far
namaste shruyate va
shruyate
kunti karnam gangayam tyajati kunti karnam गङ्गायां त्यक्तवती कर्णम् इस् दि आब्जेक्ट् कर्म ओके सो कुन्तव्या कर्णः त्यक्तः
सम्यक्
कुन्त्या कर्णः गङ्गायां त्यक्तः
सम्यक् सो कर्णः त्यक्तः कुन्त्या कर्णः गङ्गायां त्यक्तः उत्तमम् ममता भगिनि यू हैव टु अनम्यूट योरसेल्फ
गोपालाः सायं क्षीरं दिशन्ति
किञ्चित् उच्चैः कृपया
गोपालाः सायं क्षीरं दुग्धन्ति
दुग्धवन्तः सम्यक्
दुग्धवन्तः
गोपालाः सायं क्षीरं दुग्धवन्तः
गोपालैः सायं क्षीरं दुग्धं
दुग्धवन्तः
दुग्धानि
क्षीरं दुग्धं
गोपालैः सायं क्षीरं दुग्धं
सम्यक् गोपालैः सायं क्षीरं दुग्धं वस्तुतः दुग्धम् इत्यस्य क्षीरम् इत्यर्थः अस्ति यत् दुह्यते तदेव दुग्धं दट् विच् इस् मिल्क्ड् इत्यर्थे दुग्धम् इत्युक्ते क्षीरम् इति क्रियापदं सो दट् विच् इस् मिल्क्ड् सो मिल्क् वास् मिल्क्ड् इत्यर्थे प्रयोगः सायम् इति अव्ययः वा इति प्रश्नः आम् सायम् इति अव्ययम् सायङ्काले इत्यपि प्रयोगः कर्तुं शक्यते सायम् मीन्स् इन् द ईव्निङ्ग् यथा प्रातः इति अव्ययम् इन् द मार्निङ्ग् इत्यर्थः एवं सायम् इन् द ईव्निङ्ग् इत्यर्थः अग्रिमम् Anybody else? Nanda Kumpa.
Namaste, Suprabhatam. Bhimaha Gadayan Stambham Vinati. Bhimaha Gadaya Stambham Bhinnavan.
Bhinnavan. Bhimaha Gadaya Stambham Bhinnavan.
Stambhaha Bhimena Gadaya Bhinnaha.
Bhinnaha. Stambhaha Bhinnaha. Bhimena Gadaya Stambhaha Bhinnaha. Samyak. Agre Gachhamaha Aparamekam Subhashitam. Bahu Sundaram Subhashitam. Krishtam Krishtam Punarapi Punaschandanam Charugandham. Chinnam Chinnam Punarapi Punasvadu Chaivekyukandam. Dagdham Dagdham Punarapi Punah Kanchanam Kantavarnam. Pranam Devi Prativikritir Jayate Nottamanam. So it is either P or he. So pranante pi or pranante hi. So not both. It doesn't fit the meter. So pranante pi prakriti vikriti hi jayate na uttamana. Uttamana ye uttamaha purushaha. So those the noble people. Prakriti vikriti hi. So a change of their nature. So, vikriti, so it becoming going wrong, a deviation from their true nature, pranante api na jayate. So, even at the end of their lives, it is not seen. Tadartham trini udaharanani diyante, chandanam, so sandal, what we call the shrigantha, or the sandalwood. This one. Ghrishtam, ghrishtam, punarapi punaha. Ghrishtam. So, ghrishta is being I'm not getting the word for this. You get the fragrance, the gandha out of this by rubbing it again and again on another piece of wood. Okay. So, grinding. Yeah. So again, rubbing or grinding, even though it is grinded again and again, or rubbed again and again. Ghrishtam ghrishtam punarapi punaha chandanam charugantham. So it does not, it will still exude that fragrance, charugantham, the beautiful fragrance. So even though it is being ground again and again, it still exudes the beautiful fragrance. Ghrishtam ghrishtam punarapi punaha chandanam charugandham. Chinnam chinnam punarapi punaha. You keep cutting, chopping a ikshukandam. Ikshukandam, a piece of cane, sugar cane. Ikshukandam, a sugar cane. So you keep cutting it into pieces, it is still sweet. So it does not lose its sweetness because it is being cut again and again. Chinnam chinnam punarapi punaha svadu chaiva ikshukandam. Dagdham dagdham punarapi punaha kanchanam kantavarnam. Kanchanam is gold. Dagdham dagdham. So even if you keep heating it again and again to very high temperatures, it does not lose its sheen. Kantavarnam. Its attractive color. So, gold does not get tarnished by heat. So, similarly, uttamaha, so noble people, even though they are subjected to a lot of suffering, they do not give up their good ways, their nature of nobility. Ityarthaha. Ghrishtam, chinnam, dagdham. Iti trayamapi ktapratyayantam. Ghrishta, ghrishtam. Chid ta chinnam, dah ta dagdham. So, hal sandhihi sarvatra drishyate. घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनःस्वादु चैवेक्षुकाण्डम् दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम् प्राणान्तेऽपि प्रकृतिविकृतिश्चायते नोत्तमानाम्। Please repeat the meaning of the last line. Pranam tepi. So even at the end of their lives, that is even though they are subjected to a lot of suffering like this, prakriti vikritihi. Prakritehe vikritihi. Prakriti is nature. So their natural, noble character. Vikritihi. Tasya vikritihi. So any change in that. So because they are suffering a lot, they do not become evil or they do not convert into bad ways. Prakriti vikritihi na jayate. So it will not happen for uttamanam, for those who are noble by nature. Pranam tepi prakriti vikritihi jayate noktamana. Anyaha prashnaha asi sute iti padasya mula rupam kim. Shumi pranigarbha vimochane iti dhatuhu. So, sute literally means to give birth to. Prasutihi, etc. are derived from. Prasavaha. So, agregachamaha, kechana vishishtaha halantaha dhatavaha, anunasikasya lopaha bhavati. Tam dhatuhu gatam, gatavan gataha. Tam natavan natam. यम धातु यतम हन हतम मन मतम सर्वत्रापि अन्ते विद्यमानस्य अनुनासिकस्य लोपः भवति एवं बन्ध बद्धम नकारस्य लोपः बन्ध सो इट बिकम्स बन्ध धम बन्धम बद्धम सॉरी बद्धम बद्धम तमश अष्टम सो अनुस्वारस्य लोपः दष्टम् थम्श दष्टम् ग्रन्थ ग्रथितम् सेत् धातुः अत्रापि अनुनासिकस्य लोपः अस्ति इत्यतः दीयते ग्रथितम् सो टु स्ट्रिङ्ग् टुगेदर् इस् ग्रथ्नाति एवं मन्थ मथितम् टु टर्न् भ्रंश इस् टु फाल् आफ् दंश टु बैट् बन्ध टु टै सो गच्छति वीनो नमति यम यच्छति सो यम धातु सो नियम टु कंट्रोल इत्यर्थः यमु उपरमे हन्ति टु किल मन्यते टु थिंक ऑफ समथिंग अत्र प्रश्नः व्हाट हैपेंस दिस यम धातोः यतम इति भवति यत धातोः किं भवति यत्तम इति भवति यतत यत्त सो देयर आर टू तकारस देयर अत्र तु मकारः लुप्यते यमत यत यतम सो प्रयत्तम इत्यत्र तकारद्वयं श्रूयते यत्तम प्रयत्तम प्रयत्तवान इत्यत्र अत्र तु यतवान यतम इति भवति एकः तकारः अस्तु पुनः प्रयोगस्य परिवर्तनम् तवत्वन्तं वाक्यं दीयते तत्प्रत्ययान्तेन परिवर्तनीयम्
रामेण लंका गता रावणः अतः
सम्यक् सो रामेण लंका गता रावणः हतः
देवासुरः मन्दरपर्वतं वासुकिना बुद्धवन्तः देवासुरः
सुरैः
मन्दर वासुकिना बुद्धवन्तः मन्दरपर्वतः वासुकिना बद्धः
देवासुरैः मन्दरपर्वतः वासुकिना बद्धः
क्षीरसागरं मथितवन्तः क्षीरसागरः मथितः
सम्यक् क्षीरसागरः मथितः सुदेवासुरैः मन्दरपर्वतः वासुकिना बद्धः क्षीरसागरः मथितः सो द मन्दरपर्वत वाज़ टाइड विद वासुकी एंड द मिल्की ओशन क्षीरसागरः वाज़ चर्न्ड इत्यर्थः गिरिजा You have to unmute yourself. Gidija Bhagini.
Shruyate va?
Shruyate.
Kalidasena Parvati Parameshwarau Pranitavantah.
పార్వతీ పరమేశ్వరౌ ప్రణతౌ
రఘువంశం గ్రథితం
గ్రథితం రఘువంశం గ్రథితం కాళిదాసేన పార్వతీ పరమేశ్వరౌ ప్రణతౌ రఘువంశం గ్రథితం సమ్యక్ సో కాళిదాస బోర్ డౌన్ టు పార్వతీ పరమేశ్వర అండ్ హి కంపోజ్డ్ ద రఘువంశ ఇత్యర్థ దాని భగవద్గీతాయాః స్తుతి రూపః కశ్చన శ్లోకః బహు ప్రసిద్ధః గీతాయాః ధ్యాన శ్లోకాః గీతా పారాయణాత్ పూర్వం ధ్యాన శ్లోకాః ఉచ్యంతే తత్ర ప్రథమః అయం శ్లోకః पार्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन ग्रथिताम् पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीम् भगवतीम् अष्टादशाध्यायिनीम् सम्बद्धामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् అంబ భగవద్గీతే ఇది గీతాయాః సంబోధనం మదర్ గీత త్వాం అనుసంధామి ఐ రిఫ్లెక్ట్ అపాన్ యు త్వాం అనుసంధామి సో వాట్ కైన్ కీదృశీ త్వం ఇత్యత్ర భగవతా నారాయణేన పార్థాయ ప్రతిబోధితాం విచ్ వాజ్ థాట్ టు పార్థ బై None other than the Lord Narayana himself. Swayam Bhagavata Narayanena Parthaya Pratibodhita Tadishim Tvam Anusandadhami. So, Vyasena Grathitam. Grathitam. So, stringed together by Vyasa. Purana Munina. By the ancient sage Vyasa. Madhye Mahabharatam. In between the Mahabharata. సో పురాణ మునినా వ్యాసేన మధ్యే మహాభారతం గ్రథితా తాదృశీం త్వాం అనుసంధామి అద్వైతామృత వర్షిణీం సో దట్ విచ్ షవర్స్ ద నెక్టర్ షవర్స్ ద నెక్టర్ కాల్డ్ అద్వైత అద్వైత రూపస్య అమృతస్య వర్షిణీం భగవతీం సో ద గాడెస్ అష్టాదశాధ్యాయిని comprising of 18 chapters amba tvam anusandadhami bhagavad gite bhavadveshini So, an enemy of the bhava, that is the mortal world. So, by the reflection on the Gita, you can free yourself from the mortal world. Tyartha. So, parthaya pratibodhitam. Vyasena grathitam. So, grathnati granth dhatu. Anunasika lopaha drishyate. Parthaya pratibodhitam bhagavata narayanena swayam. व्यासेन ग्रथिताम् पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीम् भगवतीम् अष्टादशाध्यायिनीम् अम्बत्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम् सम्प्रसारणम् केषाञ्चनधातूनाम् क्तप्रत्यये परे सम्प्रसारणम् भवति. So, yad samprasaranam, yan varananam sthane ik varanaha, ya varal, yakarasya sthane ikaraha, vakarasya sthane ukaraha, rukarasya, rephasya sthane rukaraha, asya samprasaranam iti nama. So, yad, ya becomes I, ishtam, svap, suptam. Vakara becomes ukara. Suptam. Vach uktam. Vad vitam. Vap uktam. Vas ushitam. Vah udham. Hve hutam. Grah grihitam. Tath prishtam. एवं यकारस्य इकारः वकारस्य एतेषु सर्वेषु वकारस्य उकारः रेफस्य ऋकारः इदं सम्प्रसारणं भवति. तत्र पुनः भूतकाले परिवर्तनीयं मानकाले वाक्यमस्ति. सुक्तवतु क्त उभयस्य उपयोगं कृत्वा भूतकाले परिवर्तनं कर्तव्यम्. Nandakumar, I am not able to unmute you. Sorry, I'm not able. I am trying to, but it's somehow not working. Just a moment, I'll try with somebody. Padmanabhan.
Okay. Dhrityaha bharam vahati. Dhrityaha bharam udhavan.
Udhavan. Dhrityaha bharam udhavan.
Dhrityena bharaha udhaha.
Udhaha. Dhrityena bharaha udhaha. Samyak. Swaminathan.
Balika sukhena swapiti. Balika sukhena Suptavati.
Suptavati. Samyak.
Balikena. Balikaya. Sukham.
Sukhena.
Sukhena. Sup. Balikena. Suptam.
Suptam. Balikaya. Sukhena. Suptam. Samyak.
हरिश्चन्द्रः सत्यमेव वदति. हरिश्चन्द्रः सत्यमेव उक्तवान्. हरिश्चंद्रेण सत्यमेव उक्तम्।
सम्यक्। हरिश्चंद्रः सत्यमेव उक्तवान्। हरिश्चंद्रेण सत्यमेव उक्तम्। रामप्रिया
सा सखीम् आह्वयति। सा सखीम् आहूतवती।
आहूतवती। सा सखीम् आहूतवती।
तया सखी आहूता।
आहूता। तया सखी आहूता। रामानुजन्
देवी भक्तान् अनुगृह्णाति। देवी भक्तान् अनु अनु ग्रनाति
गृहीत
अनुगृहीतवती।
अनुगृहीतवती। देवी भक्तान् अनुगृहीतवती।
गृहीतवती। देव्या भक्ताः अनुगृहीताः।
अनुगृहीताः। देव्या भक्ताः
अनुगृहीताः।
सम्यक्। मीनाक्षी
सौ कथां संस्कृतेन अनुवदतः। सौ कथां संस्कृतेन
अनुवदितवन्तौ।
तैः कथा संस्कृतेन अनूदिता।
तौ द्विवचनम्।
तौ अनूदिताः।
न कथा तत्तु सम्यक्। तौ तृतीयविभक्ति तौ
कथा अनूदिता।
तत् समीचीनम्। तौ इत्यस्य तृतीयविभक्तौ ताभ्यां कथा संस्कृतेन अनूदिता। सम्यक्। सो दे ट्रान्स्लेटेड् दे टु ट्रान्स्लेटेड् दट् स्टोरि इन् टु संस्कृत् इत्यर्थः। अग्रे रामायणतः एकं श्लोकं पश्यामः। गृहीतश्चैव पृष्टश्च काले दृष्टः स कारणः कच्चिन्नमुच्यते चोरो धनलोभान्नरर्षभ। अयोध्याकाण्डे श्लोकः एकः बहु विशिष्टः सर्गः अस्ति। कच्चित् सर्गः इति अयोध्याकाण्डस्य शततमः सर्गः। सो द 12th द 100th सर्ग आफ् द अयोध्याकाण्ड इस् काल्ड् द कच्चित् सर्ग। सो तत्र भरतः रामं द्रष्टुं चित्रकूटम् आगच्छति। तत्र रामः भरतं दृष्ट्वा कुशलं पृच्छति। कुशलं पृष्ट्वा राज्ये सर्वं सम्यगस्ति वा इत्येवं पृच्छति। सो हि आस्क्स् अ सीरीस् आफ् क्वेश्चन्स्। एव्रिथिङ्ग् हेस् कच्चित्। कच्चित् इस् एन् अव्यय। इट् मीन्स् समथिङ्ग् लैक् ऐ होप् सो। सो ऐ होप् एव्रिथिङ्ग् इस् फैन्। ऐ होप् यु आर् आक्टिङ्ग् दिस् वे। I hope you are doing this. I hope you are not doing this. So he goes on a series of questions. It's a very good, it's not advice directly, but it is, he is telling what is to be done, especially the Rajadharma. Rajya kim kim kartavyam, kim na kartavyam, ityevam Ramaha kathayati. So a very beautiful sarga where he, there is a series of shlokas. So everything has this kachit. So I hope you are doing this. I hope you are not doing this. Sotra padrishaha ekaha shlokaha. Choraha. Kashchi choraha. Grihitaha. Kale drishtaha. Kale etyukte chaurya kale. So he was seen during the act of stealing. Drishtaha. Grihitaha. So he was caught. Prishtaha. He was questioned, inquired into. So, sakaranaha. So, with reason. It's not just catching somebody. So, kale drishtaha. He was caught during the act. Sakaranaha grihitaha. So, with reason he was caught and he was questioned. Kachit na muchyate choraha dhanalobhat. So, I hope so. Such a thief whose guilt is very clear. Dhanalobhasu namuchyate. So I hope so such a thief is not let off because of the greed for money. Etattu samanyatah drishyate eva. Etra etra nyayasthana ni bhavanti. Tatra dosha sahitanam api ye doshinaha tesham api mochanam kadachi drishyate. Kimartam dhanalobhat. So he says, kachinna muchyate choraha kachita aiho. So such a thief is not released out of greed for money. Narashabha iti bharatasya sambodhana. So grihitashchaiva prishtashcha kale drishtasakaranaha kachinna muchyate choraha na muchyate. So not to be released. Dhanalobhat narashabha. So grihitaha prishtaha drishtaha. Iti sarvatrapi kta pratyantasya prayogha. Grihitashchaiva prishtashcha kale drishtasakaranaha kachinna muchyate choro dhana lobhanna rashabha. Atra ekaha prashnahasti. Anuvadita iti na bhavativa iti. Ityapi bhavativa iti na bhavati. Anudita ityeva. Anuvadita iti. Athava anuvaditaha anuvadayati iti nijantasya prayoge anuvaditaha iti bhavati. Okay. So it is to make somebody to translate. Okay. So to directly translate is anuvadati and it is anudita. So you can also use the nijanta. If you are using the nijanta, then anuvadayati anuvadita iti api bhavati. Astu. So we'll see the last set of dhatus. Yeshu vishishtani rupani bhavanti. So pach dhatuhu pakvam. So kukr paktam itina bhavati pakvam. Jan jatam. Khan khatam. Sah sodham. Ad jagdham. Shas shishtam. Taksh tashtam. Div dhyutam. Siv syutam. So all these are special forms of the ktavatu and kta. So ktavatu pratyaye, kta pratyaye, vishishtaha, adeshaha, vidhiyante. Ataha. Vishishtani rupani bhavanti. So pakvavan pakvam, jatavan jatam, khatavan khatam, sodhavan sodham, ityevam rupani bhavanti. Patati to cook, jayate to be born, khanati to dig, sahate to tolerate, atti to eat, shasti to teach or to order, takshit. Takshnoti, it is to scrape or to peel. Div, divyati, to play or to gamble. Sivyati, to stitch or to sew. Similarly, murcha, to faint, it becomes murtam. So, etani vishishtarupani. Kinchidabhyasam kurmaha. माता भोजनं पक्ष्यति तो भविष्यत् काले अस्ति तस्य भूतकाले परिवर्तनं कर्तव्यम्. श्रीधर
नमस्ते. माता भोजनं पक्ष्यति माता भोजनं पक्ववति
पक्ववति
भोजनं पक्वम् मात्रा भोजनं पक्वम्
सम्यक् मात्रा भोजनं पक्वम् Nandakumar Mahoday, I am somehow unable to unmute you. I don't know why. Everybody else is working, but for you the unmute button is not working. Mamata Magini. You have to unmute yourself.
कर्मकरः कूपं खनिष्यति कर्मकरः कूपं खातवान्
सो हि डग् अ वेल् खातवान्
कर्मकरेण कूपः
खातः कर्मकरेण कूपः खातः सम्यक् एनिबडी एल्स् सुधा भगिनी
नमस्ते
सा
वस्त्राणि स्यूतवती
वस्त्राणि स्यूतवती
तया वस्त्राणि स्यूतानि
स्यूतानि तया वस्त्राणि स्यूतानि सम्यक् सो द क्लोथ्स् वर् स्टिच्ड् बै हर् शी स्टिच्ड् द क्लोथ्स् प्रत्ययान्तस्य रूपाणि दृष्टानि बहूनां धातूनां सो वि सॉ क्त प्रत्ययान्त फॉर्म्स तव तु अन्त हैव वेरिंग फॉर्म्स सो वी हैव लर्नड द फॉर्म्स फॉर मोस्ट ऑफ द मेजर धातुस द धातुस व्हिच वी हैव बीन यूजिंग इन आवर क्लासेस नाउ देयर इज वन मोर वेरी इंपॉर्टेंट एस्पेक्ट टू बी नोन अबाउट द क्त प्रत्यय कर्त्रर्थे क्त प्रत्ययस्य प्रयोगः एतावत् पर्यन्तमपि अधीतं यत् क्त प्रत्ययः कर्मार्थकः प्रत्ययः कर्मणि प्रयोगः इत्यादि तु सुभाषितद्वयं पश्यामः उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः कार्याणि उद्यमेन हि सिद्ध्यन्ति सो एनी टास्क can be achieved with effort udyamena na manorathaihi not just by desire or dreaming of it so you can achieve something only by working for it putting the efforts not by just thinking of it or hoping that it will happen nahi suptasya simhasya pravishanti mukhe mrigaha so an example is so even a lion even though it is all powerful it has to go out and hunt so if it is asleep mrigaah tasya mukhe na pravishanti so they will not enter its mouth on their own so it has to go out and hunt so nahi suptasya simhasya pravishanti mukhe mrigaah so tatra suptah simhah suptah the lion is has slept or is sleeping ityarthah सो तत्र सिंहः सुप्तः सुप्तवान् इत्यर्थे सुप्तः So the Supta there refers to the Kartrupada, that is the Simha, and not the Karmapada. Right? So Suptasya Simhasya Ityatra Kartra Eva Anvayaha Drishyate. Anudekam Pashyamaha. Parivartini Samsare Mritah Kova Na Jayate Sajato Yena Jatena Yati Vamshas Samunnatim. Parivartini Samsare. So the samsara, the world is parivarti, so that which is constantly changing. So tadrishe samsare mritaha kahava na jayate. So mritaha should also be marked here. So somebody who is dead, which person who is dead will not be born again. So jatasya hi dhruvo mrityuhu, dhruvam janma mritasyata. So he who is born must die, he who is dead must be born again. So, in this world which is constantly changing, mritah kova na jayate. So, who is it that who is dead is not born again? So, everybody is born again and again. Sajato yena jatena. But he only is said to be truly born. Yena jatena yati vamshaha samunnatim. By whose birth the entire vamsha, the entire family attains greatness. So everybody is born and dies. So one who is truly born, he because of whom the entire family attains greatness. Ityarthaha. Atra mrutaha jataha iti ubhayamapi kta pratyayantam kartrarthe. So he who dies is mrutaha. He who is born is jataha. So suptaha, mrutaha, jataha sarvatra kartrarthe ప్రత్యయస్య ప్రయోగః దృశ్యతే అయం ప్రత్యయః సర్వేషాం ధాతూనాం న భవతి. ద క్త ప్రత్యయ ఇన్ ద కర్మార్థ కెన్ బి యాడెడ్ టు ఆల్ ధాతుస్. సర్వేభ్యః ధాతుభ్యః కర్మార్థే క్త ప్రత్యయః భవతి. కింతు కేషాంచన ధాతూనాం, ఫర్ సమ్ ధాతుస్ యు ఆల్సో హావ్ క్త ప్రత్యయ ఇన్ కర్తృర్థ. So karmarthe api bhavati, kartrarthe api bhavati, tesham dhatuna. Tesham bhavati tandrisham iti chet, gatyarthaka dhatuna akarmakanam cha. So for dhatus which indicate going or movement. Okay. So those which indicate the movement, and akarmaka dhatus, that is intransitive verbs. Yesham karmapadam na bhavati. Okay, not cases where you don't mention the karmapada. It is where the kriyapada will not have a karmapada. Tadrishanam akarmakanam dhatunam cha kartrarthe ataprasyaha bhavati. यथा गच्छति इत्यस्ति तत्र गतवान इत्यर्थे गतः. सह ग्रामं गतवान, सह ग्रामं गतः, उभयं समानं कर्तर्थे. कर्मार्थे अपि भवति, तेन ग्रामः गतः इत्यपि भवति. सो दट इज ऑलवेज देयर. ओके, सो दिस डज नॉट ओवररूल दट. कर्मार्थे सर्वेभ्यः धातुभ्यः तत्प्रत्ययः भवति. केषाञ्चन धातूनां तु कर्त्रर्थे अपि भवति. सो गतः गता गतम् इति बालः गतः, बालिका गता, मित्रं गतम् इत्येवं कर्त्रर्थे अपि प्रयोगः. तस्य गतवान् इत्येव अर्थः. एवम् आगच्छति, आगतवान् आगतः, सः मम गृहम् आगतः, अतिथयः आगताः इति प्रयोगं कुर्मः. वेरि पोप्युलर् प्रयोगस् कर्त्रर्थे. एवं प्राप्नोति, प्राप्तवान् इत्यर्थे प्राप्तः इत्यपि प्रयोगः. सः नगरं प्राप्तः, ते प्राप्ताः इत्येवम्. एवं याति, गच्छति इत्येव अर्थः. यातवान् यातः. सो गत्यर्थकधातूनां कर्त्रर्थे सप्रत्ययः भवति. अकर्मकधातूनां सुजायते, सुजातवान् जातः. चतुस्य दशरथस्य चत्वारः पुत्राः जाताः. सो फोर सन्स वेर बोर्न. Swapiti. Suptavan, suptaha. Balaha suptavan, balaha suptaha. The boy slept. Ubhayoho samanartha. Tishthati. Thitavan, thitaha. Upavishati. Upavishtavan, upavishtaha. Snati. Snatavan, snataha. So, atra akarmaka dhatunam api kartrathe kta pratyayaha bhavati. So, etesham bhinnaha vibhaktayaha bhavanti va bhavanti. We saw suptasya simhasya. Suptam simham na jagarayamaha. So, we should not wake a sleeping lion. So, suptena simhena kim kriyate. So, what can a sleeping lion do? Ityadi. So, sarvasu vibhaktishu prayogaha bhavati kartuhu visheshanatvena bhavati. So, the thing is, you can use it in all vachanas, all vibhaktis, all lingas. Sarveshu, lingeshu, vachaneshu, vibhaktishu prayogaha bhavati kartuhu visheshanatvena bhavati. So, the normal case, karmanaha visheshanatvena bhavati, atratu kartuhu visheshanatvena sarvasu prayogaha bhavati. So, idani kartarthe eva ksapratyayam prayutya bhutakale privartanam. So, use both ktavatu and kta to convert it into bhutakala only in kartari prayoga. Okay, not karmani prayoga. Kartari prayoge eva kurmaha. Ramapriya, bhagini.
Mama bandavaha griham agacchanti. Pratam tavatu. Mama bandavaha griham agatavantaha. Itta. Mama bandavaha griham agataha.
Samyak. So mama bandavaha griham agatavantaha. Mama bandavaha griham agataha. So ubhaya prayogasya samanaha artha. Both prayogas mean the same. Okay, my relatives came home ityartha. So kartrathe ktavatu api upayuktum shakyate, ktapratyayaha api atra upayuktum shakyate.
Bhavataha putraha kadha jayate. Bhavataha putraha kadha जातवान्
भवतः पुत्रः कदा जातवान् कदा जातः सो व्हेन वाज योर सन बोर्न इत्यर्थः
सर्वे घटे उपविशन्ति सर्वे घटे उपविष्टवन्तः उपविष्टवन्तः सर्वे घटे उपविष्टाः
सर्वे घटे उपविष्टवन्तः सर्वे घटे उपविष्टाः उभयं भवति.
Just one question. This उपविष्टवन्तः is like तकारान्त.
Yes. तवतु is the usual तकारान्त.
महाराजः आस्थानं प्रविशति. महाराजः आस्थानं प्रविष्टवान्. महाराजः आस्थानं प्रविष्टः.
सम्यक्. महाराजः आस्थानं प्रविष्टवान् आस्थानं प्रविष्टः गीता द सेम प्रॉब्लम आई एम नॉट एबल टू ऑन यूट्यूब आई डोंट नो व्हाई Sorry, there is something. For some people, the unmute button is not working today. Very unusual. But Maithili. छात्राः पंक्तौ स्थितवन्तः छात्राः पंक्तौ स्थिताः the students stood in a line yatha
नाटकस्य अन्ते नटाः निर्गच्छन्ति नाटकस्य अन्ते नटाः निर्गतवन्तः नाटकस्य अन्ते नटाः निर्गताः
नाटकस्य अन्ते नटाः निर्गतवन्तः अथवा निर्गताः अर्थः समानः एवं कर्तृर्थे क्तप्रत्ययस्य प्रयोगः अपि भवति So if you look at it, taprathyaya is a very, very widely used pratyaya. So majority of cases, it is used in the karmartha. But for these dhatus, especially for the akarmaka dhatus, and also even the gatyarthakas, it is popularly used in the kartartha also. So there are a few more senses of taprathyaya, but they are very rarely used. Kadachita vartamanakale prayoga bhavati. कदाचित् अधिकरणार्थे प्रयोगः भवति बट् वेरि वेरि रेर् सो 95% आफ् तप्रत्यय इस् कवर्ड् बै दीस् टु वन् इस् द कर्मार्थ अण्ड् अदर् इस् द कर्तृर्थ ओके सो सामान्यतः यदि संशयः भवति अत्र कर्तृर्थे वा कर्मार्थे वा सो इफ् वि ट्रै टु यूस् इट् इन् लट् लकार से पुत्रः जातः इत्यस्ति सो द सन् इस् बोर्न् सो नोयिङ्ग् द मीनिङ्ग् Immediately, it will be clear whether it is being used in the kartrartha or the karmartha. Kartrartheva prayogaha karmartheva iti tu arthena jnayate. So, tadanugunam kartuhu visheshanatvena athava karmanaha visheshanatvena prayogaha kriyate. So, ante ekena shlokena samapayamaha. रणे रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि एकं सुभाषितम् सो सुप्तं प्रमत्तं विषमस्थितं वा सो वने वने इन् अ फारेस्ट् रणे रणरङ्गे इन् बेटल् फील्ड् शत्रु जल अग्निमध्ये So, in between enemies or water or fire, Maharnave, in a great ocean, Parvatamastakevo, or at the top of a mountain. So, yatra kutrapi bhavatu. So, even when a person is in very difficult situation, ityartha, bahu kashta sthitau api, suptam pramattam vishamasthitam va, suptaha. So he who is asleep, that is, he is not able to take care of himself. Svayam rakshanam kartum na shaknanti. Tadrisha parishthitau asti chedapi. So suptaha asleep, pramattaha is intoxicated or drunk or even mad, pramattaha, vishamasthitaha or in some difficult situation who is not stable, unstable. इत्यर्थः सुप्तं प्रमत्तं विषमस्थितम् इत्यत्र कर्तृर्थे क्तप्रत्ययः सो अ पर्सन् हु इस् इन् एनी आफ् दीस् कण्डीशन् तथापि रक्षन्ति पुण्यानि पुराकृतानि पुराकृतानि पुण्यानि सो गुड् डीड्स् विच् वर् डन् अर्लियर् ते रक्षन्ति दे विल् प्रोटेक्ट् हिम् इन् एनी आफ् दीस् कण्डीशन्स् सो यत्किमपि कष्टं भवतु तत्र स्वयं रक्षणे यद्यपि सः असमर्थः तथापि पुरा कृतानि पुण्यानि रक्षन्ति पुरा तेन कृतानि पुण्यानि सो अत्र कर्मार्थे कृतप्रत्ययः तेन मनुष्येण पुरा पूर्वं यानि पुण्यानि कृतानि सो आल् गुड् डीड्स् विच् वर् डन् बै हिम् अर्लियर् So they will protect him. Mataha punyam sampadaniyam. So dharmacharanam kartavyam ityartha. So vane rane shatru jala agni madhye maharnave parvatamastakeva suttam pramattam vishamasthitam va rakshanti punyani purakritani. ಅಗ್ರಿಮವರ್ಗೆ ನೂತನ ಪ್ರತ್ಯಯ ಅಧೀಯತೆ. ಸೋ ದ ಸೂತ್ರ ಆಫ್ ಕವತು ಐ ಹ್ಯಾವ್ ನಾಟ್ ಮೆನ್ಷನ್ ಇಟ್ ಇಸ್ ದ ಸೇಮ್ ಐ ಮೀನ್ ದ ಸೂತ್ರ ಫಾರ್ ಕ್ತ ಆರ್ ದ ಸೇಮ್ ಆಸ್ ದಟ್ ಫಾರ್ ದ ಕ್ತವತು ಪ್ರತ್ಯಯ. ಸೊ ಐ ಆಮ್ ನಾಟ್ ಮೆನ್ಷನಿಂಗ್ ಇಟ್. So for Ktavatu, the major parts are knowing the forms. Sorry, for Kta, the major issue is in knowing the forms which are similar to Ktavatu, knowing the prayoga, karmani prayogasya abhyasaha kartavyaha. Kartrathe yatra kta pratyayaha upayujyate, tasya api prayogaha jnatavyaha. Prashnaha santichet prachantu. Yataha. ಇತ್ಯಸ್ಯ ಗತಃ ಇತ್ಯೇವ ಅರ್ಥಃ. ವೆಂಟ್ ಹಿ ವೆಂಟ್ ಇತ್ಯೇವ ಅರ್ಥಃ. ಅನಮ್ಯಾತಃ ಹಿ ಹು ವೆಂಟ್ ಟು ದ ಫಾರೆಸ್ಟ್. ಮೀನಾಕ್ಷಿ
ಪತತ್ರಿಣಾಮ್ ಇಟ್ ಈಸ್ ಬರ್ಡ್ ಪತತ್ರಿಣಾಮ್ it is meaning is bird.
Tatatrin iti shabdaha tasya pakshi ityartha.
How it derives patatrin?
Patatrin. I have to look at the derivation. Patatrin. Just one moment.
Patatri patatrino patatrinaha.
Yes. But it's patatrin.
Pata means?
Patatra. Khadaha. I don't know. I have to actually look at the derivation of the word. Patantam trayate iti patatram. So patatram is a wing. Pakshaha. A wing is called patatram. Because patantam trayate. So it protects the bird from falling. So patatram asya asti iti patatrin. So that which possesses wing is called patatri. Pakshi itteva the same meaning. Pakshaha asya asti iti pakshin. It's that which has wings. So pakshaha itteva arthe patatram ityapi shabdaha asti. So patatram asya asti iti patatrin.
Patatram is paksham.
Patatram is pakshaha. Wing. Patatrin is a winged bird. That which has wings.
Thank you.
Any other questions? Maithili.
The last Supashitam, the Sittam Pramatam, they are all Vidya Vibhakti.
ಕರ್ತೃತ್ವ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ತಾದೃಶಂ ಸುಪ್ತಂ ರಕ್ಷಂತಿ ಪ್ರಮತ್ತಂ ರಕ್ಷಂತಿ. ರಾಮಾನುಜನ್
ಧನ್ಯವಾದ. ಐ ಹ್ಯಾವ್ ಕಪಲ್ ಆಫ್ ಕ್ವೆಶ್ಚನ್ಸ್. ಒನ್, ಲೈಕ್ ಭಕ್ತಃ, ಇಸ್ ಇಟ್ ಆಲ್ಸೋ ಕ್ತ ಪ್ರತ್ಯಯ?
ಭಕ್ತಃ ಭಕ್ತಃ ಭಜತೆ ಬಟ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಅನ್ ಅಕರ್ಮಕ. ಭಕ್ತಃ ಭಜತೆ ಸ್ಮ ಭಜ ಸೇವಾಯಾಂ ಕ್ತಃ ಸೇವತೆ ಇತ್ಯರ್ಥ ಕ ಪ್ರತ್ಯಯಃ ಏವ ದೀಯತೆ. ಸೊ ವಿಶಿಷ್ಟಃ ಪ್ರಯೋಗಃ ದಿಸ್ ಒನ್ ರೂಢಃ ಶಬ್ದ.
And what is the root, did you say, for that?
Bhaja. Bhaja. Bhajati.
Okay.
Bhaja Sevaya.
Okay. Okay. Thank you. And the second question I have is, in the last class, you showed Pakshinaha. How is it declined?
Pakshi pakshinau pakshinaha. Pakshin nakarantaha pullingaha.
Okay. It's not like Rajan or Atman.
No, that is all Ananta. So this is like Gunin. In.
Okay.
Guni gunino guninaha. So pakshi pakshinau pakshin.
Okay. Thank you.
Nanda Kumar.
My question is that the Kshapratyaya Prayoga can be in Kartarthaka only in Kartari Prayoga, isn't it? Similarly, Karmarthaka can be in Karmani Prayoga only, isn't it?
If it is Kartartha, we call it Kartari Prayoga. If it is Karmartha, we call it Karmani Prayoga. I mean, it is that which determines whether the Prayoga is Kartari or Karmani. Kartartha, it is called Kartari Prayoga because it is Kartartha. What is meant by Kartari Prayoga? Pratyayaha Kartarthe Asti Ityeva Artha.
So there can't be a confusion in a sentence whether this is in the Kartartha.
No.
Okay. Thank you.
Any other questions? सुधा भगिनी कः प्रश्नः
रघुवंशः ग्रथितः इति न वा रघुवंशः
यदा काव्यस्य नाम भवति तदा नपुंसकलिङ्गे रघुवंशं महाकाव्यम् इत्येव वंशः वंशशब्दः पुल्लिङ्गः वंशः अस् अ फ़ैमिलि रघूणां वंशः रघुवंशः तदा तु रघूणां वंशः इत्येव अर्थः रघुवंशम् अधिकृत्य कृतं काव्यम् रघुवंशम् यदा काव्यस्य एतद्भवति तदा रघुवंशम् इति नपुंसकलिङ्गे
धन्यवादः
अन्यः प्रश्नः आसीत् वा पतङ्गविषये किमपि पृष्टम्
पतङ्गः इति सूर्य अस्ति वा पतङ्गः
सूर्यः पक्षी अनन्तरं कीटः सर्वे अर्थाः सन्ति सो यथा प्रदीप्तं ज्वलनं पतङ्गाः सो तत्र तु कीटाः इत्यर्थः ये प्रकाशं प्रति गच्छन्ति ते कीटाः इति सूर्यः इत्यर्थः अस्ति पतङ्गशब्दः पक्षी इत्यपि अर्थः अस्ति
अस्तु भगिनि धन्यवादः
अस्तु मोथ् रैट् द मोथ्स् आर् आल्सो काल्ड् पतङ्गा यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेग अस्तु अत्र स्थगयामः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्विनमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादाः